युवोजुषूरसम् भुवे सधस्तुत्याय सूरिषु मधूर्तदक्षावृषणावृषण्वसु युवम् वरोषुषाम् मे महेतनेन सत्या अवोभिर्जाथो वृषणावृषण्वसु तावा मद्यः वामहे हव्येभिर्वाजिनीरसु पूर्वीरिषयिषयम् तापतिक्षपः आवाम् वाहिष्ठो अश्विनारथो जातु श्रुतो नारा उपस्तो माम् तुरस्य दर्शत श्रिये युगुरानाचिदश्विनामन्येथाम् मृषण्वसु युवम् निरुद्रापर्षचो अतिद्विषाः मानुषण्वक्षोभिः परिदीयसः इयम् जिन्वा मधुवर्णा सुभस्पतीः पुराणो जातमश्विना राजा विश्वपुषा सह मघवाहानासुवीरावनपच्युता आमे अस्य प्रजीव्या अमिन्द्रनावत्यागतम् देवादेवेभिरद्यसजनस्तमा वयम् हि वाघवामहवुक्षण्यन्तो व्यश्वभत् सुमतिभिरुपविप्राविहागतम् अश्विना श्रीषेऽस्तु हि कुविते श्रवदोहवम् नेदीयसः कूलजातः पणीङ्घृता वैयश्वस्य श्रुतम् न रोतो मे अस्य वेदसः सजोषसावरुणो मित्रो अर्जमा युवा दत्तस्य धृष्ण्या युवाणी तस्य सूरिभिः अहरहर्णशाह्यम् शिक्षतम् यो वाम् यज्ञेभिरावृतो धीवस्त्रावधूरीव सपर्यन्ता शुभे चक्राते अश्विना यो वामुरुव्यतस्तमम् चिकेततिर्वाह्यम् वर्तिरश्विना परियातमस्मयु अस्माभ्यम् दुवृषण्वसु जातम् वर्तिर्मृवाह्यम् विषुद्रिहेव यज्ञमोहधुर्गिरा वाहिष्ठो वाम्भवानाम् सोमो दूतो भुवन्नरा युगाभ्याम् भूत्वश्विना यदतो दिवो अर्णवयिषो वामदधो गृहे सुतमिन्मे अमर्त्या उदस्याश्वेतजापरीवाहिष्ठावाम् नदीनाम् सिन्धुर्हिरण्यवर्तनिः स्मदेतया सुकीर्त्याश्विना श्वेतया धिया महेथे शुभ्रया वाना युक्ष्वायि त्वम् रथासः युवस्वपोष्यावसो आन्नो वाजो मधुपिबास्माकम् सवनागहि तव वायवृतस्पते त्वष्टुर्जा मातरद्भुता अवाम् स्यावृणीमहे त्वष्टुर्जा मातरम् वयमीशानम् राजयीमहे सुतावन्तो वायुम् युम्ना जना सह वायो याहि शिवा दिवो वहस्वासु स्वस्यम् वहस्वमहपृथुपक्षसारथे त्वाम् हि सुप्सरस्तमम् निषदनेषु भूमहे रावाणम् नाश्वपृष्ठम् मह्मना सत्त्वम् नो देवमनसावायो मन्दानो अग्र्यः हृदिवाजाम् अपोधियाः